वाणी संप्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां स्वीयेन मलेशिया देशीयेन समकक्षेण अनवर इब्राहिम इत्यनेन सह वार्तां साधयिष्यति। वार्तानन्तरं उभौ देशौ नैकेषु सहभागिता ज्ञापनपत्रेषु हस्ताक्षरं करिष्यतः इति आशास्ति। एतदनन्तरं श्रीमोदी तस्य सम्माने मध्याह्नभोजनस्यापि आयोजनं करिष्यति। तदनु श्री इब्राहिम राष्ट्रपति भवने राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मेलनं करिष्यति। राष्ट्रपतेः कार्यक्रमस्य अनन्तरं विदेशमन्त्रिणः डॉ एस जयशंकरस्य प्रधानमन्त्रिणा इब्राहिमेन साकं चर्चा निर्धारिता अस्ति। अवधेयं वर्तते यत् मलेशियादेशीयः प्रधानमन्त्री एषः त्रिदिवसीयाधिकारिक यात्रायां ह्यः रात्रौ नवदिल्लीं प्रति आगतवान्। केन्द्रीय जलशक्ति रेल राज्यमन्त्री वी सोमन्ना इत्येषः विमानपत्तनस्थानके तस्य स्वागतम् अकरोत्। भारत जापान देशौ ह्यः नवदिल्ल्यां 2+2 इत्येतस्य मन्त्रिस्तरीय वार्तां विधास्यतः। रक्षामन्त्री राजनाथसिंहः विदेशमन्त्री च डॉ एस जयशंकरः जापानदेशीयौ रक्षामन्त्री किहारा मिनोरु विदेशमन्त्री च योको कामिकावा इत्येषा समायोक्ष्यमाणे उपवेशने भागं स्वीकुर्वन्ति। उपवेशनावधौ रक्षामन्त्री जापानदेशस्य च रक्षामन्त्री द्विपक्षीयवार्ताम् अपि करिष्यतः। एतस्मिन् उपवेशने द्विपक्षीय सहयोगस्य समीक्षाम् अथ च उभयोः देशयोर्मध्ये सम्बन्धान् इतोऽपि प्रबलीकर्तुं नवीनेषु पक्षेषु वार्ताः समनुष्ठास्यन्ते। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः आरभ्य पोलैण्ड युक्रेन देशयोः त्रिदिवसीय यात्रायां भविष्यति। विदेशमन्त्रालयस्य सचिवः तन्मयलालः अद्य संवाद्यदातृन् सूचितवान् यत् एषा एका ऐतिहासिकी यात्रा विद्यते यतोहि भारतस्य प्रधानमन्त्री 45 वर्षाणाम् अनन्तरं पोलैण्डदेशं प्रति गच्छति। सचिवेन प्रख्यापितं यत् श्रीमोदी पोलैण्डदेशस्य प्रधानमन्त्रिणा डोनाल्ड टस्क इत्यनेन राष्ट्रपतिना च एन्ड्रेज डूडा इत्यनेन साकं मेलनं करिष्यति। अनेन अग्रे निगदितं यत् प्रधानमन्त्री श्रीमोदी युक्रेनदेशस्य राष्ट्रपतिनः व्लडोमिर जेलेंस्की इत्यस्य निमन्त्रणे शुक्रवासरे युक्रेनस्यापि आधिकारिक यात्रारतो भविष्यति। महत्वधायिनी एषा यात्रा 30 वर्षाणाम् अनन्तरं भवत्। जम्मू कश्मीरे विधानसभा निर्वाचनस्य प्रथमचरणस्य अधिसूचना अद्य प्रख्यापयिष्यते। एतस्मिन् प्रथमे चरणे अनन्तनाग शोपिया कुलगाम रामबन किश्तवाड़ डोडा जनपदानां 24 विधानसभासनेभ्यः मतदानं भविष्यति। अस्मै चरणाय नामांकन प्रपूरणस्य अन्तिमं दिनं अगस्तमासस्य 27 वर्तते। प्रत्याशिनां नामांकन पत्राणाम् अनुसन्धेय कार्यम् अग्रिमे दिवसे एव भविष्यति। नामांकन प्रत्यावर्तनस्य अन्तिमः दिवसः अस्य मासस्य एव 30 अपि च मतदानं सितम्बर मासस्य 18 भविष्यति। ध्यातव्यमस्ति यत् केन्द्रशासित प्रदेशे विधानसभा निर्वाचनाय अन्तिमा मतदातृसूची अद्य प्रख्यापयिष्यते यस्यां मतदातृणां संख्या 90 लक्षाधिकं वर्तते। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन इत्येषा ह्यः नवदिल्ल्याम् आयोजितायां सभायां सार्वजनिक क्षेत्रस्य वित्तकोषाणां कार्यप्रदर्शनस्य समीक्षां कृतवती। अस्यां सभायां वित्तीय सेवा विभागस्य सचिवः डॉ विवेक जोशी सार्वजनिक क्षेत्रस्य वित्तकोषाणां प्रबन्धनिदेशकः मुख्य कार्यकारी अधिकारी अथ च अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।